तमष्टहिजो अभिभो अत्याजा बन्वन्नवा आतः पुरोहोत इन्द्राः अशा अल्हबुग्रम् सहमानमाभिर्गेर्भिरवर्धवृषभञ्चर्षडीनाम् स युद्भः सत्त्वा आखजकृत्समद्वा आतुविम् रक्षो न धनुमाङ्ग्रजीषे बृहद्रेणुश्च मनो मानुषे डामेकः कृष्टे नाम भवत्सहा वा त्वम् हनुत्यदमाजो दस्योऽङ्ग्रेकः कृष्टेरवनोरार्याय अस्त्यस्मिन्न वीर्या अन्तत्त इन्द्र न स्विदस्त्यतद्रुतुथा विवोचः सदिद्धिते तु विजातस्य मञ्जे सहस्रहिष्ठतु रथस्तुरस्य उग्रमुग्रस्य तपसस्तबीजो रध्रस्य रध्रतुरो बभूव तन्नः प्रत्नम् सख्यमस्तु युष्मे इत्थावदद्भिर्बलमङ्गिरोभिः हन्नच्युतच्युद्वस्मेषयन्तमृणाः पुरो विदुरो अस्य विश्वाः स हि धेभिरहव्यो अस्त्युग्र एषा न गृह्महति वृत्रतोर्ये स तोकसा तातनजे स वज्रेभितन्तसाह्यो अभवत्समत्स स मज्मना जनि ममानुषाढाममर्त्येन नाम्नातिप्रसरसृ सद्युम्नेन स शवसोत राजा स वीर्येणनृतमः समोकाः स यो न मुहेन मिथो जनो भोत्सुमन्तनामा चुमुरिन्धुनिम् च वृणक् पिप्रम् शम्बरम् शुष्णमिन्द्रः पुराञ्चोत्नाय शयथा जनोचित उदावतात्वक्षसा पञ्जसा च वृत्रहत्या जरथमिन्द्रतिष्ठ धिष्वज्रम् हस्त आदक्षिणत्राभिप्रमन्दपुरुदत्र भाजाः अज्ञर्न शुष्कम् वरमिन्द्रहेते रक्षो निधक्षशनिर्न भीमा गम्भीरजरिष्वजाजोरुरोजाध्वानयद्दुरितादम्भयच्च आसहस्रम् पथिभिरिन्द्रराजा तु विद्यम् न तु विभाजेभिरर्वाक् या हि सो नो सहसो यस्य नोचिदते व ईशे पुरोहोतयोतोः प्रतुमिद्युम्नस्य स्थविरस्य घृष्वेर्दिवोररप्से महिमा पृथिव्योः नास्य शत्रुर्न प्रतिमानमस्ति न प्रतिष्ठिः पुरमायस्य सह्योः प्रदत्ते अद्याकरणम् कृतम् भोत्कुत्संयदायुमतिथिग्वमस्मै पुरो सहस्रा निशिषा अभिक्षामुत्तोर्वजाडम् धृषतानि नेथ अनुत्वाहिघ्ने अध देवदेवामदन् विश्वे कवितमम् कवीनाम् करो यत्र परिभो बाधिताय दिवे जनाय तन्वे गृडानः अनुद्यावा पृथिवी तत्त ओजो मर्त्याजिहत इन्द्रदेवोः कृष्वाकृत्नो अकृतञ्यत्ते अस्त्युक्थन्न वीजो जनयस्व यज्ञैः